Tamam, sí. Vakyakaram, Rarujim, Bhashyakaram, Patanjalim, Paninim, Sutrakaranja, Pranatosmi, Manitrayam. Hal Santhinam, Adhyayam, Kriyamanamasti, Tra कानिचन सूत्राणि एतावता दृष्टानि परसवर्णः पूर्वसवर्णः इदं द्वयं परसवर्णसन्धिः पूर्वसवर्णसन्धिः इदं द्वयम् अवशिष्टमस्ति तत् अद्य पश्यामः परसवर्णविधायकानि सूत्राणि त्रीणि वर्तन्ते There are three rules regarding Parasavarna. Pathamam sutram anuswarasya yayi parasavarnaha. Iti. Anuswarasya shishti vaktihi yayi saptami parasavarnaha prathama ja anuswarasya sthane yayi pare parasavarnaha bhavati. Parasavarnaha इत्यनेन परः पूर्वः परः परस्य सवर्णः सवर्णः नाम अनुस्वारस्य स्थाने परसदृशः वर्णः भवति परसदृशः सवर्णः इति व्याकरणशास्त्रे काचित् संज्ञा तत्र स्थानं कण्ठः इत्यादि उच्चारणस्थानानि सन्ति पुनः केचन प्रयत्नाः अपि उक्ताः उच्चारणार्थं तानि स्थानानि ते प्रयत्नाः ययोः वर्णयोः समानः सः सवर्णः इति कथ्यते उदाहरणार्थं क ख ग ख ङ एते सर्वेपि सवर्णाः एवञ्च अतः परसवर्णः नाम अनुस्वारः अनुनासिकः अतः अनुनासिकस्य अनुस्वारस्य स्थाने परः वर्णः यादृशः तत्सदृशः अनुनासिकः वर्णः भवति उदाहरणार्थं परः वर्णः यदि कवर्गे अस्ति तर्हि ङकारः अनुनासिकस्य स्थाने भवति किमर्थं ङकारः अपि अनुनासिकः अनुस्वारः अपि अनुनासिकः अनुनासिकः नासिकया उच्चार्यते अनुस्वारः नकारस्य उच्चारणार्थमपि नासिकायाः साहाय्यम् अपेक्षितम् अतः अनयोः साम्यमस्ति अतः यदि कवर्गीयः कश्चन वर्णः परः अस्ति तर्हि अनुस्वारस्य स्थाने नकारः भवति यदि चवर्गीयः कश्चन वर्णः अस्ति तदा अनुस्वारस्य स्थाने नकारः भवति एवं नकारः टवर्गीयः वर्णश्चेत् नकारः तवर्गीयः वर्णश्चेत् नकारः पवर्गीयः वर्णश्चेत् मकारः इत्येव यदि यकारः अस्ति अत्र न लिखितं यदि यकारः अस्ति तयै वर्णे यकारः अपि अन्तर्भवति यदि यकारः अस्ति तर्हि अनुनासिकः यकारः भवति यदि वकारः तर्हि अनुनासिकः वकारः इत्येव उदाहरणार्थं शान्तिः अयं शम् धातोः रूपं शम् धातोः अत्र शाम् इति जातं शान्तिः तत्र पूर्वं मकारः आसीत् शम् इति धातुः एवञ्च प्रीवियस्ली देर् वास् मकारः शाम् देन् मकारस्य स्थाने अनुस्वारः भवति सूत्रं पूर्वम् अधीतं मोनुस्वारः महापकारस्य स्थाने अनुस्वारः भवति हलि परे तकारः हल् अतः मकारस्य स्थाने अनुस्वारे शान् शाम् इति अनुस्वारः जातः इदानीम् अनुस्वारस्य अत्र अनुस्वारः वर्तते अनुस्वारस्य ययि परे तकारः ययि वर्णः अनुस्वारस्य ययि परे परसवर्णः अयं दिस् इस् पर तकारः परवर्णः, तकारः परवर्णः, परसवर्णः, परसवर्णाः यद्यपि अनेके सन्ति, त थ द ध न सर्वेपि सवर्णाः एव तकारस्य, किन्तु अनुस्वारस्य अनुस्वारेण सह सादृश्यं नकारस्य एव भवति. अनुस्वारस्य सदृशतमः नकारः एव. किमर्थम्? अनुस्वारस्य उच्चारणं नासिकया क्रियते, नकारस्य उच्चारणेपि नासिकायाः साहाय्यम् अपेक्षितम्. अतः अनुस्वारस्य स्थाने नकारः एव आदिश्यते. एवञ्च शान्तिः इति रूपम्. अनुस्वारस्य स्थाने ययि परे परसवर्णः भवति. परः परसवर्णः, परसवर्णः कः भवति? अत्र अनुनासिकः वर्णः एव सर्वदा आदिष्टः भवति. कण्टकं, कम् अत्रापि अनुस्वारः वर्तते, अतः अनुस्वारस्य स्थाने टकारः ययि वर्णः. तस्मात् ययि परे अनुस्वारस्य स्थाने परसवर्णः, परः टकारः, तत्सवर्णः अत्र सवर्गस्य अन्तिमः वर्णः णकारः, सः आदिश्यते कण्टकम् इति रूपम्. दण्डः, अत्रापि डकारः अस्ति अतः णकारः, दण्डः. एवम् अनुस्वारस्य ययि परे परसवर्णः. अन्यानि कानिचन उदाहरणानि. गन्तव्यं, गम् इति मकारः अस्ति, आदौ यथा मया उक्तम् आदौ मकारस्य स्थाने अनुस्वारः, अतः गम् इति भवति, गन्तव्यं. ततः परम् अनुस्वारस्य ययि परे परसवर्णः, अतः नकारः, गन्तव्यम् इत्येवम्. अत्र गम् इति धातुः, धातुः मकारः अस्ति, मकारस्य आदौ अनुस्वारः, मोनुस्वारः इति सूत्रेण. ततः परम् अनुस्वारस्य स्थाने अनुस्वारस्य परसवर्णः इत्यनेन परसवर्णः, तदा अनुस्वारस्य स्थाने नकारः, गन्तव्यम् इति रूपम्. अन्यदुदाहरणं, गम् त किं भवति? सुलभमस्ति इदानीं, पूर्ववदेव इदानीम् उत्तरं लिखितुं शक्नुवन्ति. यस्, पूर्वं यथा कृतं, समानः धातुः अस्ति अतः सेम्. सो गन्त, यम् रामनारायणजि, यस् वसुदेवन्ति, सम्यक् इन्दिराजि उत्तमम्. यस् कल्याणकृष्णजि उत्तमं. सो गन्त, एवं सेम् गन्तुं, गन्तुं. नम तव्यम्, अत्र अपि समानं, नन्तव्यं. यस् रामनारायणजि उत्तमं. यस् इन्दिराजि, यस् वासुदेवन्जि उत्तमम्. एवमेव सेम् नन्त, नन्तुं सेम्. आरम्भणम्, आरम्भणं किं भवति? यस् रामनारायणजि उत्तमम्. या लक्ष्मीनारायणजि, सदाशिवंजि उत्तमम्. उत्तमं. सो अत्र अत्र द प्रक्रिया विल् बि लैक् दिस् बिकास् दो यद्यपि अत्र मकार, दो इट् दिस् मकार, फस्ट् तर्हि किं भवति, प्रथमम् अनुस्वारः भवति र बिकम्स् रम्, देन् अगेन् अनुस्वारस्य स्थाने मकारः. सो दिस् इस् द प्रोसिजर्. सो दो देर् इस् मकार, फस्ट् इट् गेट्स् अनुस्वार, देन् द अनुस्वार अगेन् बिकम्स् मकार. अतः आरम्भणम् इति रूपं सिद्ध्यति. अस्तु, हा शान्तः वि डिड् प्रीवियस्लि, ओके ओके. यस्, शान्तः सम्यक्. ओके, नेक्स्ट् अग्रिमं सूत्रमस्ति. द नेक्स्ट् सूत्र इस् वा पदान्तस्य, 58 59, द नेक्स्ट् सूत्र इन् अष्टाध्याय आल्सो. अनुस्वारस्य यै परसवर्णः वा पदान्तस्य, सम्पूर्णं सूत्रम् अनुवर्तते. अनुस्वारस्य आल् त्री पदास्, अनुस्वारस्य यै परसवर्णः, सर्वाणि पदानि अत्र अनुवर्तन्ते. अतः कः अर्थः सूत्रस्य? पदान्तस्य अनुस्वारस्य, पदान्तस्य इस् इन् दिस् सूत्र. सो पदान्तस्य अनुस्वारस्य, यदि अनुस्वारः पदान्ते अस्ति, इफ् अनुस्वार एट् द एण्ड् आफ् पद, पदान्तस्य अनुस्वारस्य, रिमेनिङ्ग् इस् सेम्, ययि परे परसवर्णः विकल्पेन भवति, बट् हियर् इट् इस् आप्शनल्, परसवर्ण इस् आप्शनल्. पदान्तस्य अनुस्वारस्य ययि परे परसवर्णः वा विकल्पेन भवति इति सूत्रस्य अर्थः. Yeah, there is a question. Does it mean that we must first put M to Anuswara, then change it to some of N? Yes. First, always, first this Monuswara is applicable. Ataha prathamam Anuswara ha bhavati. Anuswara ekrate tadasparam paravarnaha kaha ajidrishtva punaha parivartanam karaniyam. If paravarna is in pavarga, then again it gets makara. If pavarga, paravarna is in tavarga, then it gets nakara, like that. Yeah. If anuswara is followed by rukara, what happens? It should not have, because nothing happens, because there is no anunasika form of rukara. So there is no sadrisha varnaha nasti. Atah, can you, I don't remember any example. Okay, chitram ramate just anuswara, nothing happens. Makarasya sthane anuswara chitram ramate. Tavadeva. Okay, so chitram ramate becomes chitram ramate only. Chitram etavadeva chitram ramate. Because rakarasya anunasikah varnah nasti, only yakarasya, vakarasya, लकारस्य व्यञ्जनेषु एतेषां त्रयाणाम् अनुनासिकवर्णाः सन्ति. अर्थात् अनुनासिकः यकारः अस्ति, अनुनासिकः वकारः अस्ति, अनुनासिकः लकारः अस्ति. किन्तु अनुनासिकः रकारः, अनुनासिकः रकारः नास्ति. अतः रकारे परे केवलम् अनुस्वारः परसवर्णः न भवति. अस्तु, नन्तव्यं नन्तव्यम् इत्यनयोः उच्चारणे को भेदः इति अन्यः प्रश्नः वर्तते. नकारस्य उच्चारणे अनुस्वारस्य उच्चारणे च भेदः वर्तते. नकारस्य उच्चारणे दन्तः स्थानं सवर्गस्य स्थानं दन्तः, अतः जिह्वायाः दन्तस्य च स्पर्शः भवति. नन्तव्यं जिह्वायाः तत्र उपरितनदन्तः यः अस्ति तस्य स्पर्शः भवति जिह्वायाः, नन्तव्यम् इति. किन्तु अनुस्वारस्य उच्चारणे दन्तस्पर्शः नास्ति, एवं जिह्वायाः दन्तस्य स्पर्शः नास्ति, किन्तु अत्र दन्तयोः स्पर्शः भवति. दन्तयोः स्पर्शः, उपरितनदन्तः अधस्तनदन्तः उभयोः अपि स्पर्शः भवति, ओष्ठयोः अपि स्पर्शः भवति. नं तव्यं केवलं नासिकास्थानं, नासिका अनुस्वारस्य, अतः अनुस्वारस्य उच्चारणे नासिकामात्रं स्थानम्, अतः नं तव्यम् अत्र नासिकया अनुस्वारः उच्चार्यते. ओष्ठयोः स्पर्शः भवति, दन्तानां च स्पर्शः भवति, एवञ्च नासिकायाः एव अत्र स्थानत्वं लभ्यते. ओके, सो देर् इस् द उच्चारणम् आफ् अनुस्वार अण्ड् नकार इस् कम्प्लीट्लि डिफरेण्ट्. हौ डु यु रैट् चित्रं प्लस् वर्तते? ओके, चित्रं वर्तते. See, now I am explaining the same rule. That is, if anuswara is at the end of pada, padantasya anuswarasya, the anuswaraha padasya anteyasti, tarihi parasavarnaha va, it is optional. Parasavarna is optional. Ataha, so chitram vartate, anuswara is also correct. And we can also pronounce as chitram vartate, means atra parasavarna api bhavitum arhati. Chitram, like this, chitram vartate. Like this, chitram vartate is also possible. So chitram vartate. Astu, so we can pronounce like this, or chitram vartate, you can pronounce we can pronounce like this also, with anuswara or with parasavarna. Yes, same for chitram yati, chittam yati, we can also say chittam yati. Or chitram yati, chitram yati, chitram, yeah, okay, chitram vartate. So that is, the makara is not possible, we can't write like this, chitram vartate, this is incorrect. If we write makara, then it is incorrect, because it should be anuswara always. Anuswara is not optional, parasavarna is optional. So if we write makara, then it is incorrect, we should write anuswara only. But parasavarna is optional. Yes, so chitram makara is incorrect. Then atra agamah astiva. So I didn't get what this is. Adesha, it's not agama. Because anuswarasya sthane parasavarna. Parasavarna is an adesha. Here there is no agama. The anuswara is on vakara or akara. Okay. Anuswara. Okay. I didn't get where you are asking. I think if you ask in this chitram, then this actually Anuswara and Anunasika, there are two things. Anuswara is a different letter. Anuswara is a different letter. So it is akara is different and anuswara is different. A plus anuswara. So there are two different letters. Okay. So if you are asking about anunasika, then anunasika, in this example there is anunasika, but here we have chitram vartate, here there is anunasika, but it is anunasika vakara. It is in this chitram vartate, vakaraha eva anunasikaha. There is no ach chitram. Ata vakaraha eva anunasika vakaraha api asti. I think if you are asking here, this is anunasika yakara, it is not an akara. It is not an akara, only it is anunasika yakara. Since it is difficult to type, I typed akara. So I can write anunasika yakara like this, but typing is difficult. Therefore, I added akara. Actually, there is only anunasika ya, like this. Anunasika ya and anunasika vakara, like this. Chitram or anunasika lakara. Okay. So this may create confusion, but since it is difficult to type anunasika without akara, I added akara in this. Okay. Can you combine the two? Can you combine the two? No, I didn't get the question. Prashnaha na jnata kalyandi. Okay, in chitram vartate. In the two. Can you ask directly? I didn't get the question. I will switch on the mic just a minute. Yeah. Can you raise? Yeah,
can you hear me now?
Yes.
Yeah, good evening. You know, when we wrote chitram vartade, chitram vartade, see that two was, one was with a chandrabindu on top, the other one doesn't have it. So why don't you simply combine them into one was, put the chandrabindu on top?
Okay, so yeah, we can't combine because the vartate, this vakara is different, and we are replacing anuswara with this anunasika vakara. So this anuswara is replaced with this one, this anunasika vakara, and this another vakara is in vartate. There's a different word.
Okay, so you're better off for economy's sake to use the optional way of writing chitram vartade, right? So you don't, you'll say one letter.
So instead of anuswara, I'm writing anunasika vakara.
Okay. I got it. Thank you, sir.
Okay. Okay, yeah. Chitram. So atra anunasika na bhavati. Here we should not write anunasika because we are replacing anuswara with anunasika vakara. So this vakara is not anunasika. Vartate ityatra yaha vakara ha, saha anunasika vakara ha na. Astu. उदाहरणं दर्शयामि, ततः परं पुनः प्रष्टुं शक्नुवन्ति. शङ्करः सम् इति पदं पदान्तस्य अनुस्वारस्य शं करोति इति शङ्करः. सो शं हियर् शम् इस् अ पद, अतः पदान्ते अनुस्वारः अस्ति. पदान्तस्य अनुस्वारस्य यै परे, सो ककार अत्र यै वर्णः, अतः पदान्तस्य अनुस्वारस्य यै परे परसवर्णः भवति. सो सिन्स् इट् इस् ककार, अत्र ककारः अस्ति, अतः कवर्गस्य पञ्चमः, द फिफ्त् लेटर् आफ् कवर्ग, दट् इस् ङकार, अनुस्वारस्य स्थाने ङकारः भवति. अतः शङ्करः, शङ्करः, सिन्स् इट् इस् आप्षनल् यु केन् रैट् अनुस्वार आल्सो, शङ्करः आर् शङ्करः. Even though it is optional, it is pronounced always anunasika. Because while pronouncing, it is very easy to pronounce anunasika if you compare with anuswara. So since there is kakara, shankara, pronouncing shankara is easier than shamkara. So usually therefore we pronounce anunasika in such places, but it is optional. While writing, we can write both because we find both in writings. Anuswarah api bhavati, anunasikah api bhavati. And see, this is also sambandhah. So sam upasargah asti, and upasarganam padattvam vartate. There are padas, always upasargas are padas. Dataha atra sam anuswarah, anuswarasy yayi pare, atra aspin udaharane bakarah asti, ataha bakare pare parasavarnah, parah bakarah tat savarnah, the fifth letter of pavarga, that is makara. So sambandhah, or we can also write as sambandhah, sambandhah, anuswara or parasavarna. Regarding Vedic pronunciation, there is a question. Though there is, it is optional. Mostly in Veda, it is ya, va, la, with anunasika only is pronounced. Any reason? I don't know whether any sutra in Pratishakya, because there is Pratishakya. There is book called Pratishakyas for each Veda shaka. If you take Taittiriya Ayurveda, then is Taittiriya Ayurveda. There is Pratishakya. So this Veda Vyakarana, Vyakarana of Vedika literature. So there can be an exception, I don't know. So yeah, so I can't answer properly because I didn't study the Pratishakya of because each Veda has a different Pratishakya. There is Rig Veda, there is a different Pratishakya. For Ajurveda, there is a different Pratishakya. So we have to refer those Pratishakyas to know what they have said regarding these issues. Yeah, that is Pratishakya. Pratishakya. This is the book Pratishakya, and each Veda has different Pratishakya. So if you are referring to Ajurveda, then you have to check in Ajurveda Pratishakya, because the rules are different for each Veda. So we have to study these Pratishakyas to understand Vedic rules. Some are common, Ashtadhyayi rules, and those rules are some may be common, but it's not always there. Same. ओके तो प्रातिशाख्यम इति अत्र वैदिक व्याकरणम् वेद व्याकरणस्य पुस्तकम् तत्र वैदिक प्रक्रियायां ये नियमाः सन्ति तत्र ज्ञातुं शक्यन्ते सर्वे नियमाः सामान्य नियमाः अत्र भवन्ति अष्टाध्याय्यां किन्तु विशेष नियमाः प्रातिशाख्ये भवन्ति अस्तु देन् गृहं गत्वा गृहं गत्वा सो गृहम् इस पद पदान्ते अनुस्वारः अस्ति अतः विकल्पेन परसवर्णः बिफोर् गृहं गत्वा आर् गृहं गत्वा हियर् ऐ रोट् संहिता इन् दीस् टु एक्साम्पल्स् यतः संहितायां सो दिस् इस् संहिता संहिता वर्णानां सामीप्यं प्राक्सिमिटि आफ् लेटर्स् दट् इस् संहिता सो अत्रापि मया संहिता लिखिता अस्ति गृहं गत्वा संहितायामपि विकल्पः इवन् इन् संहिता आल्सो दिस् आप्षनल् सो गृहं गत्वा वि केन् आल्सो रैट् लैक् दिस् गृहं देन् स्पेस् गत्वा दिट् इस् डिफ्रेण्ट् देर् इस् नो संहिता इफ् यु रैट् लैक् दिस् देर् इस् नो संहिता गृहं अण्ड् गत्वा सो हियर् अत्र संहिता अस्ति so in samhita also actually it's applicable in samhita only if there is no samhita then sandhi is not applicable so actually sandhi is not applicable in this level because there is no samhita when there is samhita then we can it is the anuswara anuswarasya sthane parasavarna adishtha bhavati atah graham gatva atah graham gatva athava graham gatva iti vibhajya prayogah actually though I didn't write samhita here because there can be confusion regarding this therefore I split it but actually the sandhi is applicable if there is samhita otherwise if you split like this if there is no samhita then sandhi rule is not applicable I think we can write graham plus gatva I think that can be a better option of writing Shankara or yeah because in Shankara see there is a question but Shankara we can't split Sham and Kara because Shankara is samasa in samasa samhita is not optional samhita is compulsory samase samhita nitya but graham gatva samasah nasti therefore samhita is optional so we can write graham gatva also but shankarah or sambandhah so here samhita is not optional therefore we can't split the words yeah so yeah there is again if you don't mind please explain what is yeah and explain again see I previously while studying achandhi chapter I explained about samhita samhita is proximity of letters samhita iti vyakarana shastre kachit samnya but in some places samhita is optional and some places samhita is compulsory in a word if it is a single word then samhita is compulsory samhita ekapade nitya ekapada and samhita is compulsory between dhatu and upasarga dhatu and upasarga dhatu and upasarga is samhita is compulsory and even in samasa samhita is compulsory and only in sentence samhita is optional so in other places except vakya samhita is compulsory in all other places so shankarah is samasa atah atra samhita nitya atra api samasah vartate अतः संहिता नित्या अतः वि काण्ट् स्प्लिट् सम् बन्धः लैक् दिस् इति विभागः भवितुं नार्हति किमर्थं समासः अस्ति किन्तु गृहं गत्वा इति दिस् वन् द लास्ट् एक्साम्पल् देर् इस् नो संहिता संहिता सारि समासः नास्ति देर् इस् नो समास इन् दिस् लास्ट् एक्साम्पल् देर् फोर् संहिता इस् आप्षनल् वाक्ये in vakya is also vakya. So here it is optional. Ataha, we can write griham, we can also write like this, griham gatva, this is without samhita. Without samhita means there is a gap between these two words. So griham gatva, if I, yadi maya viramaha diyate, tada samhita nasti, griham gatva. Kintu, yada samhita vivakshita, then also two possibilities. When samhita is intended by the speaker, then there are two possibilities. Either parasavarna or anuswara. This one. The second one is anuswara. There are two possibilities. And the first one, anunasika. Anunasika. Anuswarasya sthane anunasika. There are two possibilities. Even in samhita. Graham gatva. Graham gatva. Or graham gatva. Okay, I think now pronunciation is I'm pronouncing differently. See, graham gatva, this is anunasika. Graham gatva, anuswaraha, with samhita. Graham gatva, that is without samhita. Okay, so there are three possibilities. So this is without samhita. If there is no samhita, sandhi rule is not applicable. Yadi samhita asti, tarhi anuswaraha bhavitum anunasikaha bhavitum arhati and anuswaraha bhavitum arhati. Okay, yeah, I think someone raised their hand. Yes, Kalyanji, prashna asti va?
No, I'm sorry.
Okay, bata hastaha udhritaha asti. Okay. Okay, yeah. We see that the Anunasika form is commonly written in Vedas. For example, when we chant Yajurveda Brahmana, we often see Samvatsaraha, not Samvatsaraha. Yeah. And in Vedic pronunciation, we always pronounce Samvatsara only. Means we never pronounce Samvatsara. So, I don't know whether there is a rule for that or not in Vaidishakya, but pronunciation is always with Parasavarna. Because in Vedic pronunciation, the tradition is very important. So in tradition, always they follow Parasavarna. So though it's optional, we should not use this option in Vedic chanting. Nama are these pure anunasikas? Kaha prashna? No, I didn't get Venkateshwaranji. Prashna anajnata. Yeah. Astu. See, anyata udaharanam. Tam lokam. Atra lakaraha asti. Parahavarnaha lakaraha. Ataha anuswarasya sthane. Lakare pare. Para savarna. Paraha lakaraha. Savarna is anunasika lakara. Ataha anuswarasya sthane anunasika lakara bhoti. Tam lokam. Athava tam lokam. Anuswaraha. Okay, is it clear now regarding va padantasya? Now there's one more rule, torli. Okay, so agrima sutram asti, the next rule is torli. Toho li. Padadvayam asti sutre, toho. Sutre yai vishaye kripaya punaha vadativa. Yai iti, yai is pratyahara, yakara from yavarat. Ha hakaraha nasti, yavarat lan nyamangananam jha bhany ghatha thash jabagadadash kha pha cha tha tha chatatau kapai. Shashasar hal ete nasanti punaha. सो यै इत्यनेन एते सर्वे वर्णाः गृह्यन्ते य व रट् लण् सो आल् वर्गीय व्यञ्जन सर्वे सर्वाणि वर्गीयव्यञ्जनानि क ख ग ग च वर्गीयव्यञ्जनानि देन् य व र ल एते चत्वारः किन्तु यकारस्य यकारः अस्ति चेत् परसवर्णः न भवति किमर्थं अनुनासिकाय रकारः अस्ति चेत् रकारः अस्ति चेत् परसवर्णः न भवति किमर्थम् अनुनासिकः रकारः नास्ति इफ् देर् इस् रकार देन् परसवर्णः इस् नाट् पासिबल् बिकास् देर् इस् नो अनुनासिकरकार य वल एते वर्णाः सन्ति चेत् अनुनासिकः यकारः अनुनासिकः वकारः अनुनासिकः लकारः भवति वर्गीयव्यञ्जनानि सन्ति चेत् तस्य तस्य वर्गस्य अन्तिमः वर्णः आदिष्टः भवति इति व्यवस्था परसवर्ण इस् आप्शनल् या वित् उपसर्ग दो संहिता इस् नित्यं स्टिल् परसवर्ण इस् आप्शनल् इस् इट् करेक्ट् यस् दट् इस् करेक्ट् सो संहिता इस् कम्पल्सरि संहिता इस् नाट् आप्शनल् वित् उपसर्ग बट् परसवर्ण इस् आप्शनल् ओके उत्तमम् अस्तु सो द नेक्स्ट् रूल् अग्रिमसूत्रमस्ति तोर्लि तोः लि इति द्विपदं सूत्रं तोः इति षष्ठी लि इति सप्तमी परसवर्णः इति अनुवर्तते एवञ्च 58 59 60 अग्रिमं सूत्रमस्ति परसवर्णः भवति तोः तोः तु इति शब्दस्य षष्ठी विभक्तिः तोः तु इत्यनेन तवर्गः गृह्यते लेटर्स् आफ् तवर्ग अतः तोः इत्यस्य कः अर्थः तवर्गस्य इत्यर्थः तवर्गस्य स्थाने लि इति लकारस्य सप्तमी विभक्तिः एवञ्च लु लु शब्दः सप्तमी विभक्तिः लि सो लकारे परे इत्यर्थः सवर्गस्य लकारे परे परसवर्णः भवति इति सूत्रस्य अर्थः सवर्गस्य लकारे परे परसवर्णः भवति इति सूत्रस्य अर्थः एवञ्च उदाहरणार्थम् अत्र उदाहरणं द लास्ट् वन् तवर्गः अस्ति दकारः तवर्गे वर्तते तद् शब्दः दकारान्तः अत्र दकारः तवर्गे अस्ति अतः तवर्गस्य स्थाने अस्मिन् उदाहरणे दकारः लकारे परे लयः इति शब्दः लकारेण आरभ्यते अतः लकारे परे वेन् इट्स् फालोड् बै लकार लकारे परे किं भवति परसवर्णः अत्र लकारः यः अस्ति दकारः यः सः अनुनासिकः नास्ति देर् आर् टु टैप्स् आफ् लकारस् अनुनासिक एण्ड् निरनुनासिक दिस् वन् एण्ड् वित् अनुनासिक देर् आर् टु लकारस् टु टैप्स् सो लकारद्वयमस्ति सो अत्र दकारः अनुनासिकः नास्ति अतः निरनुनासिकः लकारः एव दकारस्य स्थाने भवति देर्फोर् तल्लयः किन्तु एक्साम्पल् विद्वान् लिखति इन् दिस् एक्साम्पल् नकारः अस्ति नकारः अनुनासिकः अस्ति नकार अनुनासिकः देर्फोर् अनुनासिकः लकारः भवति अनुनासिकलकार रिप्लेसस् नकार विद्वान् लिखति विद्वान् लिख ओके विद्वान् लिखति देन् विद्वान् लिखति विद्वान् लिखति इति रूपम् अत्र संहित अत्र समासः अस्ति तल्लयः इत्यत्र किन्तु द्वितीय उदाहरणे समासः नास्ति देर्फोर् संहिता इस् आप्शनल् देर्फोर् वी केन् आल्सो रैट् एस् विद्वान् लिखति दो दि सन्धि इस् नाट् आप्शनल् तोर्लि अत्र वा इति नास्ति तोर्लि इत्यनेन यः परसवर्णः सः विकल्पेन न सूत्र इस् नाट् आप्शनल् but since samhita is optional we will get two forms So vidwan likhati, vidwan space likhati. This is without samhita. Vidwan space likhati is without samhita. But yadi, if samhita is intended, then always we should do parasavarna. Vidwan likhati, like this, So if samhita is intended, parasavarna is compulsory. If samhita is not intended, then we can write like this, vidwan space likhati. Okay, there are some questions. Torli works padante only or apadante too? So in this sutra, the padanta or apadanta is not mentioned. So it can work anywhere. If there are such examples, then it can work. Because tavargasya rakare pare parasavarna. The sutra says only this. Ataha, it can be at the end of pada or anywhere. Apadante api bhavitumarhati. Okay, then can we say parasavarnaha adeshaha bhavati? Sammek. Parasavarnaha adeshaha bhavati. Yes, it's not agama. Parasavarna is adesha. Because whenever a letter replaces another letter, then it's adesha. See here, this dakara is replaced with lakara. Therefore, it's adesha. Whenever this such replacement takes place, then it's adesha. Here is replacing lakara, replacing dakara. Therefore, parasavarnaha adeshaha bhavati. Iti vaktavyam. So, agamaha iti vaktum na shakyate. Parasavarna is not an agama. Astu? Okay. So, parasavarna vithayakam sutra trayam asti. Anuswarasya yayi parasavarnaha. Anuswarasya sthane yayi pare. Parasavarnaha bhavati ityekam sutram va padantasya padantasya anuswarasya yayi pare parasavarnaha va vikalpena bhavati iti dvitiyam sutram tritiyam toholi tavargasya sthane lakare pare parasavarnaha bhavati iti tritiyam sutram. Okay. In the last example, is it anuswarasya working or torli? Yeah, in the last two examples is torli, it is not anuswara. It will mark here. Okay, these two examples. These two are example of torli. The first four, Shankara, Sambandha, Grahangatva, Tanlokam, they are examples of Vapadantasya. And for Anuswarasya Parasavarnaha, I showed examples in the previous slide. For Vapadantasya, these four are the examples of Vapadantasya. And these last two are the examples of Torli. Okay? Asto. Okay. Even though Anuswarasya appears to work, atra there is no anuswara in those two examples. Talbu layaha vidwan likhati. There is no anuswara. So the first two rules are not applicable in these two, talbu layaha and vidwan likhati. Sanyasi iti vak shabdasya sanyasi iti uchcharanam shubdham va? Yeah. So now there is a question regarding sanyasi. How to write? See. Now, as we know, sammiti upasarga asti, and upasarganam padattam vartate. So, va padantasya, padantasya, padante anuswara asti, padantasya anuswarasya, parasavarna is optional. Therefore, we can write sannyasi, we can write anuswara, or we can do parasavarna, then we have to write nakara. Like this. Okay, so both are correct. Ubhayatha api likhitum shakyate. This is also correct. This is also correct. Kimartham va padantasya anus parasavarna optional. Parasavarna vikalpena bhavati. Ataha anuswara api likhitum shakyate. परसवर्णः अपि कर्तुं शक्यते. Does ending in a na also totally? Yes, because nakara is in savarga. This one, so this example of totally, vidwan likati, because nakara ha tavarga asti. Toho means tavarga, tavargasya ityarthah. So any letter, ta tha da tha na, yakopi varna ha bhavatu, lakare pare parasavarna ha bhavati. So here in the previous example there is dakara, in vidwan likhi there is nakara, but both are in tavarga. Okay, is there any samasa happening in the word sanyasi? Yes, there is a samasa. There should be pradi samasa in that. Okay, okay, money, okay, just a minute. Yes,
Priyate. Okay, see, here I have a question. In the last torli, there are two letters, takara and dakara, vidwan, there are three letters. Suppose there is only one letter, takara, either ta ta da tha na, and then lakara comes, then how does it totally work?
Yeah, but can you get such examples?
I don't have
because see, always with a consonant there should be a vowel.
Okay,
vyanjanena saha sarvada kasya swara varna bhavet,
that's given. I'm taking just takara, it could be ta, da, or tu, or te, or whatever it is. I don't have an example, just it's a theoretical question.
No, so it can be like this, because if a word can be like at, or ad, only you can get such words. Because according to Sanskrit grammar, a consonant should not, you can't pronounce as only consonant.
No. Suppose there's a letter ta, just takara plus akara ta
plus ta plus
ta, and then I don't have an example as I said, but there is a any other word that comes after ta, starting with either la, starting with la, I don't know.
So like this ta plus la.
No, yeah. How does it become la?
No. See, if this takara has akara, if it is tu plus a, then sandhi is not applicable. If it is tu plus a, because it's ending with akara now. Right. It's not ending with takara.
Ati is applicable, but sa is not applicable.
Yes. Here we can do, but here we can't do.
Yeah. Suppose we want to say at. Plus layaha, allayaha, it rise, right?
Yes. Yeah, it should be allayaha.
I don't know if there is a meaning for that, but just for the sake of example.
Yeah. Correct.
Oh, I got it. Thank you very much.
Okay, namaste. Okay, yeah. Then I think there is a question. Samyak nyasam, nyasam. Yeah, sannyasin, yeah, samyak. Nyasa, it is a krit pratyaya to get a nyasi. Ni is upasarga and as. Ni as, then there is a krit pratyaya. Astu, agre, yamancha, I'm removing all these drawings. Okay. Okay. ఇతః పరం కనచన ఉదాహరణాని సమ్ ఎగ్జాంపుల్స్ సమ్ భవః అత్ర సమ్ ఇతి ఉపసర్గ అస్తి అతః యా ఐ థింక్ దేర్ ఇస్ అ క్వశ్చన్ విఎన్ మీనాక్షిజి
తల్లీనః హౌ వి కెన్ సే దట్ వర్డ్ తల్లీనః ఇస్ దేర్ ఎనీ సంధి ఆర్ ఎనీ రిలేటెడ్ టు దిస్
This one, I think I'm writing here. Tal Talina. No. Okay. Talina. Talina is a samasa. Samasa asti atra. Actually, it was like this. That means tadu plus lina and parasavarna talina.
Oh.
Kaha. So tasmin lina ha. Tadu plus lina parasavarna talina ha iti bhavati.
Okay.
Tallinah nama tasmin linah tertaha.
Thank you.
Astu. Sam bhavaha atra kim bhavati? Parasavarnaha is optional, so we can write anuswara or parasavarna. Sam bhavaha. Atra likantu, so kim utaram? Sam brahmaha. Katham bhavati sambhramaha ityatra. Atra anuswara asti, anuswarat param bhakara asti, kinto sam iti upasargaha ataha vikalpena. Tasmat, yeah, is optional. Ataha sam iti anuswara api bhavitumarhati or sam iti sam. Evam api bhavitumarhati. Sambhra. Both are correct. Sam or sam. Yes. Uttamam. Yeah, Lakshmi Ranji Samek. Yeah. Jay Kumarji. Uttamam. Agre. Sankhya. Atra katham. Sankhya. Yes. Sadashivamji. So. Chitram. Vartate also. We could do this for Chitram Vartate. Yes, we can do Chitram Vartate. That's also correct. We can do with Chitram Vartate. Yeah. Sankhya Atrapi Ngakaraha. Sankhya or Sam Anuswaraha. Rupadvayam Bhavitumarhati. Yes, Lakshmi Arandi. Sammek. Yeah. Okay, yeah. Then Istham Kritva. Same. Atrapi.
Atrapi.
Ittang kritva. Iti parasavarnaha bhavitumarhati. Athava anuswaraha bhavitumarhati. Astu. Pathanam kritva. Same. So, pathanam kritva. Or pathanam kritva. Like this. Yes. Ramanaranji, Uttamam. Tam devam atra, yeah. Kim bhavitumarhati? Yes, Ramanaranji. Yes. Swaminathanji, yeah, Indiraji, Uttamam. So, atra nakaraha or anuswara tan devam. Tandeva nirmitam, like this. Tandevam. Or tam devam. Sankranti. Oh, kranti. Visargaha lekhaniya. I forgot to write visarga. Kranti. So, atra, yes. Sankranti. Or samkranti. Anuswara. Anuswaraha. Athava parasavarnaha. Sangamaha. So, atrapi. So, here also it's optional. Sangama. Either ngakara athava anuswaraha. Yes, so, yeah. Sangeetam. Uttaranakale. Samanyataha vayam parasavarnaste uttaranam kurma. While pronouncing, we usually pronounce parasavarna. But while writing, sometimes we write anuswara, sometimes we write parasavarna. Santoshaha. Atarapi. Yes. Ramanaranji Samek, Lakshmi Aranji Uttamam. So, Santoshaha. Atarapi. Takarahasti. Ataha parasavaranaha vikalpena bhavati. Yes. Ramanaranji. Santoshaha. Athava anuswaraha. Upayata. Tan lok. Tam lokam. Atra lakaraha vartate. Yes. So, ata anuswara asti ataha ಅನುನಾಸಿಕ ಲಕಾರ ತಂ ಲೋಕಂ ಅನುನಾಸಿಕ ಲಕಾರ ತಂ ಲೋಕಂ ಅಥವಾ ತಂ ಲೋಕಂ ಏತಂ ಯಮಃ ಏತಂ ಯಮಃ ಎಕ್ಸಾಂಪಲ್ ಆಫ್ ಯಕಾರ ಅತ್ರ ಯಕಾರ ಅಸ್ತಿ ಅತ ಅನುಸ್ವಾರಸ್ಯ ಸ್ಥಾನೆ ಅನುನಾಸಿಕ ಯಕಾರ ಭವತಿ ಸೊ ಏತಂ ಯಮಃ ಆರ್ ಏತಂ ಯಮಃ ಅನುನಾಸಿಕ ಯಕಾರ ಅಥವಾ ಪರಸವರ್ಣ ಎಸ್ ಯಾ ರಾಮನಾರಾಯಣ ಜಿ ಉತ್ತಮಂ ತಂ ಲೋಕಂ ತೋರ್ಲಿ ಎಸ್ ತಂ ಲೋಕಂ ಇಸ್ ಎಕ್ಸಾಂಪಲ್ ಆಫ್ ನೋ ತಂ ಲೋಕಂ ಇಸ್ ನಾಟ್ ತೋರ್ಲಿ ಬಿಕಾಸ್ ಹಿಯರ್ ಅನುಸ್ವಾರ ಅಸ್ತಿ ದೋ ದೇರ್ ಇಸ್ ತಕಾರ ಬಟ್ ಇಟ್ ಎಂಡ್ಸ್ ವಿತ್ ಅನುಸ್ವಾರ ತಂ ಲೋಕಂ ಲೈಕ್ ದಿಸ್ ಅತ ಅನುಸ್ವಾರ ಲಕಾರ ಪರೆ ಅಸ್ತಿ ಅತ ಇಸ್ ಎಕ್ಸಾಂಪಲ್ ಆಫ್ ವಾ ಪದಾಂತಸ್ಯ ಅತ್ರ ಇಟ್ಸ್ ನಾಟ್ ಎಂಡಿಂಗ್ ವಿತ್ ತವರ್ಗ ಇಟ್ಸ್ ಎಂಡಿಂಗ್ ವಿತ್ ಅನುಸ್ವಾರ ಓಕೆ ಅಂಡ್ ತ್ವಂ ಕರೋತಿ ಸೊ ಅತ್ರ ತ್ವಂ ಕರೋತಿ ಅಥವಾ ತ್ವಂ ಕರೋತಿ ರೂಪದ್ವಯಂ ಏತಂ ವದತಿ ಎಸ್ ರಾಮನಾರಾಯಣ ಜಿ ಉತ್ತಮಂ ಅತ್ರ ವಕಾರ ಅಸ್ತಿ ಬಿಫೋರ್ ಅನುನಾಸಿಕ ವಕಾರ ಅನುನಾಸಿಕ ವಕಾರ ಭವತಿ ಸೊ ಏತಂ ವದತಿ ಆರ್ ಅನುಸ್ವಾರ ಏತಂ ವದತಿ ಎಸ್ ರಾಮನಾರಾಯಣ ಜಿ ಉತ್ತಮ ಲಕ್ಷ್ಮೀನಾರಾಯಣ ಜಿ ಸದಾಶಿವಂ ಜಿ ಉತ್ತಮ ಓಕೆ ಯಾ ದೆನ್ ತಂ ದೇಶಂ ಐ ಥಿಂಕ್ ಯಾ ವಿ ಡಿಡ್ ದಿಸ್ ಎಕ್ಸಾಂಪಲ್ ಅಂಡ್ ತಾಂ ಟೀಕಾಂ becomes taan yeah so utam ramanarayan ji so taan tikam nakara atra takara asti ataha parasavarna is a taan tikam taan tikam ityam athava anuswara astu yeah okay astu samayah abhut atra samapayamah itopi ಏಕಃ ವಿಷಯ ಹಲ್ಸಂಧಿ ಪ್ರಕರಣೆ ಪೂರಸವರ್ಣಸ್ಯ ವಿಷಯ ವಕ್ತವ್ಯಮಸ್ತಿ ಅಗ್ರಿಮಪಾಠೆ ವದಾಮಿ ತತಃ ಪರಂ ಕಿಂಚಿತ್ ಅಷ್ಟಾಧ್ಯಾಯಾಂ ಕಥಂ ಕುತ್ರ ಸಂಧಿ ಪ್ರಕರಣಮಸ್ತಿ ಅತ್ರ ಪ್ರಾಯ ಸರ್ವಾಣಿ ಸೂತ್ರಾಣಿ ಅಷ್ಟಮೇ ಅಧ್ಯಾಯ ಸಂತಿ ಕಿಂಚಿತ್ ಅಷ್ಟಮಾಧ್ಯಾಯಸ್ಯ ಪರಿಚಯಂ ಪ್ರಾಪ್ನುಮಃ ಅಗ್ರಿಮಪಾಠೆ ತದ್ವಿಷಯ ವದಿಷ್ಯಾಮಿ ಇದಾನೀಂ ಅತ್ರ ಸಮಾಪಯಾಮಃ ಅಸ್ತು ಮಂಗಳಂ ಕರೋಮಿ ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ